अधुना अस्माकं सन्धिवर्गे नूतनविषयः व्यञ्जनसन्धिः इति. तर्हि एतावत्पर्यन्तं वयं स्वरसन्धिविषये बहु किमपि अधीतवन्तः. स्वरसन्धिः इति उच्यते यतोहि तत्र सन्धेः फलरूपेण अथवा सन्धिकार्ये आदेशरूपेण स्वरः आगच्छति इति कृत्वा फलं दृष्ट्वा एव सन्धेः नामकरणं क्रियते. तत्र स्वरसन्धि प्रसङ्गे तु सन्धिः यदा क्रियते तदा स्वरः एव आगच्छति इति वयं दृष्टवन्तः आदेशरूपेण. उदाहरणतया सवर्णदीर्घसन्धिः इति. सवर्णदीर्घसन्धिसमये पूर्वपरयोः स्थाने एकः दीर्घस्वरः आगच्छति इति कृत्वा सवर्णदीर्घसन्धिः इति नामकरणं सञ्जातम्. यण् सन्धिः इति उदाहरणं स्वीकुर्मश्चेत् तत्रापि फलमस्ति यण् वर्णस्य आदेशः इति. इको यणचि इति सूत्रमासीत्, इकः स्थाने यण् इत्यस्य आदेशः आसीत् इति कृत्वा स्वरसन्धिः. अधुना व्यञ्जनसन्धिः. व्यञ्जनसन्धिः यदा भवति तत्र व्यञ्जनम् आगच्छति आदेशरूपेण वा अथवा आगमरूपेण इति वयम् अद्य आरभ्य परिशीलयिष्यामः. तत्र व्यञ्जनसन्धिः इति तृतीयपाठः. बालसुब्रह्मण्यमहोदय पृष्ठसङ्ख्या 29, ततः आरभ्य किञ्चित् पठति वा? व्यञ्जनसन्धिः इति शीर्षिकं पश्यति वा? हा, 29 पुटे.
व्यञ्जनसन्धिः. व्यञ्जनसन्धेः बहवः नियमाः सन्ति. अत्र तेषु केचित् नियमाः विवृताः सन्ति. तान् सर्वान् सावधानं पठत. प्रथमः स्थुत्वसन्धिः. श छ छ ज झ ञ. एतानि उदाहरणानि परिशीलयत. शिशुस् योगशेते. शिशु योग इस् योग योग एते. शिशु योगस योगस योग एते शिशुषेते इति. पाण्डवास् योग च. पाण्डवा योगस योग च योग अ. पाण्डवा योगस योग च योग अ. पाण्डवाश्च. रामस् योगच्छात्रः. रामयोगस योगच्छ योग आत्रः. रामयोगस योगच्छ आत्रः रामच्छात्रः. एतेषु उदाहरणेषु सकारात् परतः षकारचवर्गौ वर्णौ स्तः. तत्र सकारस्य स्थाने सकार आदेशः सम्पन्नः.
अस्तु महोदय, फलितार्थः कः आसीत्?
फलितार्थः यदा सकार अन्त पदम् अथवा वार्ता अस्ति. सकार इत्युक्ते दन्त्यसकारान्त पदमस्ति चेत् तदनन्तरं तालव्यसकारादि सकारवार्ता अथवा चकारवर्णपदार्थः आगच्छति चेत् अन्तिमवर्णः सकार दन्त्यसकारस्य स्थाने तालव्यसकारः आदेशः भवति
तालव्यशकारः
शकारः
हा बहु समीचीनमस्ति अन्ततो गत्वा आदेशरूपेण शकारः आगच्छति अथवा चवर्गस्य कश्चन वर्णः आगच्छति खलु हा तर्हि यथा मया उक्तं फलं दृष्ट्वा सन्देहे नामकरणम् इति तर्हि शकारः अथवा चवर्गीयः कश्चन वर्णः आगच्छति इति कृत्वा श्चुत्वसन्धिः इति उच्यते अस्य सन्धेः नाम श्चुत्वसन्धिः इति भवता यानि उदाहरणानि परिशीलितानि तत्र तु सकारस्य शकारादेशः एव शकारः आगच्छति इति अस्तु अधोभागे टिप्पण्यः सन्ति महोदय प्रथमटिप्पणीं च द्वितीयटिप्पणीं किञ्चित् पठतु
शिशुः योगक्षेत्रे शिशुयोगविसर्गः योगस्य योग एते अत्र विसर्गसन्देहे निमित्तम् अस्ति शिशु योग इस् योगस्य योग एते विसर्गस्य सकार आदेशः
हा शिशुस् इति पठितं भवता अन्ते सकारः दन्त्यसकारः श्रूयते सः सकारः कुतः इति चेत् विसर्गसन्धिः भूत्वा आगतः सकारः अतः एव सकारात् परतः शकारः इति स्थितिः सञ्जाता अस्ति श्चुत्वसन्धेहे निमित्तमपि अस्ति इति अस्तु अग्रे अग्रिमटिप्पणी
द्वितीयटिप्पणी पाण्डवाः योगच्छ पाण्डवा योगविसर्गः योगच्छ योग अ अत्रापि विसर्गसन्देहे निमित्तम् अस्ति पाण्डवा योगस योगच योग अ विसर्गस्य सकार आदेशः विसर्गस्थाने सकारः आदेशः
आम्
सकार इत्युक्ते दन्त्यसकारः यदि विसर्गस्थाने
दन्त्यसकारः तदनन्तरं चवर्गीयः वर्णः अन्ततो गत्वा फलरूपेण तालव्यशकारः आगच्छति दन्त्यसकारस्य स्थाने समीचीनम् इति श्चुत्वसन्धेः कानिचन उदाहरणानि आसन् यत्र सकारस्य शकारत्वेन परिवर्तनं जातम् अग्रे अस्तु प्रथमतया के के आगतवन्तः तदभ्यन्तरे
सुमित्रा अस्मि भगिनि नमस्ते
नमस्कारः भगिनि सुमित्रा भगिनि अस्तु तर्हि अग्रे पुनः आ इति वर्णः अस्ति खलु तत्र राजेन्द्र महोदय पठति वा प्रथम उदाहरणम्
आम् भगिनि एतानि उदाहरणानि परिशील्यत भगवत् योगशक्तिः भगव योगतकारः योगशकारः योग अक्तिः भगव योगचकारः योगशकारः योग अक्तिः भगवत् शक्तिः भगवत् शक्तिः अत्र तकारः आसीत् भगवत् अन्ते तकारः अनन्तरं शकारः अस्ति तत् तकारस्य चकारः भूत् भवति भगवत् शक्तिः भवति विकल्पेन तत् चकारस्य स्थाने चकारः आगच्छति शकारस्य स्थाने मूर्धन्यशकारस्य स्थाने तालव्यशकारस्य स्थाने चकारः आगच्छति विकल्पेन भगवत् शक्तिः भगवत् शक्तिः शक्तिः तत्र
हा हा समीचीनं महोदय भगवत् शक्तिः इति महाप्राणचकारः यत्र अस्ति तद् अनन्तरं परिशीलयिष्यामः किन्तु सामान्यकार्यं तत्र प्रथमकार्यं किम् आसीत्
तकारस्य स्थाने चकारादेशः भवति यथा शकारः आगच्छति
सत्यं तकारस्य स्थाने चकारः आगच्छति परतः कः वर्णः अस्ति तकारस्य परः
तालव्यषकारः आसीत्
तालव्यषकारः आसीत् अस्तु अग्रिम उदाहरणमपि कृपया
आश्चर्यवत् योग च अत्र अपि आश्चर्ययोगतकारः योगचकारः योग आश्चर्ययोगचकारः योगचकारः योग आश्चर्यवच् आश्चर्यवच् अत्र अपि तकारः आसीत् अन्ते तत् अनन्तरं चकारः आगच्छति तत् तथा तकारस्य स्थाने चकारादेशः भवति तत्कारणात् तत् आश्चर्यवच् आश्चर्यवच् न भवति तत् सन्धि उक्त्वा
समीचीनं तर्हि पुनः तकारस्य च स्थाने चकारादेशः इति तर्हि मनसि सर्वदा भवेत् यद् अत्र वयं यानि उदाहरणानि बालसुब्रह्ममहोदयेन पठितानि अपि च अत्रापि वयं दृष्टवन्तः यत् आदेशरूपेण शकारः आगच्छति अथवा चकारः इत्युक्ते चवर्गस्य कश्चन वर्णः अतः एव श्चुत्वसन्धिः इति उच्यते अस्तु तर्हि श्चुत्वसन्धेः सूत्रं कथं कार्यं करोति इति करपत्रे अस्ति राजेन्द्रमहोदय करपत्रं परिशीलयति वा तस्मात् पूर्वम् अद उपरितनभागे करपत्रे पश्यति वा सूत्रेषु विभक्तिः अर्थः तत् किञ्चित् स्मारयतु
निश्चयेन सूत्रेषु विभक्तिः अर्थः षष्टिविभक्तिः इत्युक्ते स्थाने सप्तमी विभक्तिः पूर्वकार्यं पञ्चमी विभक्तिः परकार्यं प्रथमाविभक्तिः आदेशः आगमः नामकरणं तृतीयविभक्तिः संयोजनं तत्र विभक्ति अनुसरणं कृत्वा तत्र कार्यं भवति तथा षष्टिविभक्तिस्थाने स्थाने सप्तमी पूर्वकार्यं पञ्चमी परकार्यं प्रथमाविभक्ति आदेशः आगमः नामकरणं तृतीयविभक्तिसंयोजनं तत् एवं
समीचीनमस्ति तर्हि स्थाने इति तु जानीमः यस्य स्थाने आदेशः भवति तस्य षष्ठी विभक्ति भवति इति स्वरसन्धिसूत्रेषु अपि वयं दृष्टवन्तः सप्तमी विभक्ति पूर्वकार्यं यथा इको यणचि अचि परे पूर्वम् इक् स्थितस्य इक् वर्णस्य यणादेशः भवति इको यणचि इति सूत्रम् अचि इति सप्तम्यन्तमासीत् पञ्चमी विभक्तिः इति अपि वयं दृष्टवन्तः उदाहरणं तत्र किम् आसीत् स्वरसन्धिविषये बहु समीचीनम् आद्गुणः इति आसीत् अवर्णात् अचि परे इति खलु तदा परकार्यम् इति आसीत् प्रथमाविभक्ति तु जानीमः यः कोऽपि आदेशः आगमः अथवा नामकरणं संज्ञासूत्रेषु भवति खलु नामकरणम् इति तस्य प्रथमा विभक्ति एव भवति इति तृतीया विभक्त्याः उदाहरणं वयं स्वरसन्धिसूत्रेषु न दृष्टवन्तः खलु न किमपि सूत्रमस्ति यस्मिन् तृतीया विभक्तिः दृश्यते इति चिन्तयामि आम् इति एव वार्ता तर्हि अधुना प्रथमवारं पश्यामः तृतीया विभक्तिः सूत्रे कथं कार्यं करोति इति अस्तु अग्रे महोदय
श्चुत्वसन्धिः स्तोः शचना शचुः शचुः सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति शकारस्य चवर्गस्य च योजनेन यथासङ्ख्यम् अनुदेशः समानम् इति परिभाषासूत्रेण उदेशीनाम् अनुदेशीनां च यथाक्रमम् उद्देशिभिः उद्देशिनः सम्बध्यते स च तुश्च स्तुः स्तोः समाहारद्वन्द्वसमासः तत् स च चुश्च शचुः तेन शचुना समाहारद्वन्द्वः स च चुश्च शचुः समाहारद्वन्द्वः स्तोः षष्ट्यन्तं शचुना तृतीयान्तं शचुः प्रथमान्तं तत्र त्रिपदं सूत्रम् अस्ति संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं स्तोः शचुना शचुः संहितायाम्। अतः स्तोः षष्ट्यन्तम् अस्ति, स्तोः सकारः सकारः अथवा तवर्गी कोऽपि वर्णः अस्ति अन्ते तस्य स्थाने षट्चना षकारः तालवी षकारः अथवा चवर्गी वर्णः संयोजयामः तत् षचुः तत् आदेशः भवति। षकारः अथवा चवर्गी कोऽपि वर्णः तस्य आदेशः अस्ति।
अस्तु, स्तोः तस्य विभक्ति का?
षष्टिविभक्ति।
षष्टिविभक्ति, स्तुः संक्षेपं कृत्वा स्तुः, सकारः अपि च तवर्गीयस्य तवर्गीयव्यञ्जनानां संक्षेपं कृत्वा तुः इति उच्यते सूत्रेषु। स्तुः इति गुरुशब्दवत् खलु? हा, अतः तस्य षष्टिविभक्ति गुरोः इति यथा वदामः तद्वदेव स्थोः इति अस्ति। अपि च श्चुः इति तस्य विभक्ति का महोदय? हा, प्रथमाविभक्ति। तर्हि
आदेशः आगमः अत्र तु आदेशः एव अस्ति।
हा, अस्मिन् सूत्रे आदेशः, आदेशः कस्य स्थाने?
दन्तीसकारः अथवा तवर्गे कोऽपि वर्णः आसीत्, तत् अनन्तरं तालवीषकारः अथवा चवर्गी वर्णस्य आदेशः अस्ति।
हा, आदेशः कदा भवति, कस्यां दशायां?
यदा यदा दन्तीसकारस्य अथवा तवर्गीवर्ण अनन्तरं तालवीषकारः अथवा चवर्गी कोऽपि वर्णः आगच्छति।
हा, अत्र तृतीया विभक्ति अस्ति खलु, श्चुना इति। स्तोः श्चुनाश्चुः इति अस्ति। वस्तुतः तत्र यथा वयं स्वरसन्धिसूत्रेषु दृष्टवन्तः, इकोयणचि इत्यत्र अचि इति अनन्तरम् आगच्छति इति सूचनां ददाति। सप्तमी विभक्ति इत्युक्ते अनन्तरम् आगत्य पूर्वकारं कार्यं कारयति इति सूचना प्राप्यते। अस्तु, पञ्चमी विभक्तिः इत्युक्ते परकार्यम् इति भवति। परन्तु तृतीया विभक्तिः यदा भवति तत्र केवलं संयोजनम् इति एव वार्ता। अस्तु, तृतीया विभक्तिना यः निर्दिष्टः भवति, यः कोऽपि वर्णः, अत्र तु श्चुः इत्युक्ते शकारः अपि चवर्गस्य कश्चन वर्णः, श्चुन गुरुणा इति यदा वदामः तद्वदेव श्चुन। अत्र तृतीया विभक्तिद्वारा यः कोऽपि वर्णः निर्दिष्टः भवति सः अनन्तरमपि भवितुमर्हति, पूर्वमपि भवितुमर्हति इति। क्रमस्य प्राधान्यं नास्ति, केवलं संयोजनं, सम्पर्कः इति वार्ता। तर्हि श्चुना अथवा शकारस्य चवर्गस्य प्रभावेण सकारस्य तवर्गस्य च स्थाने शकारः चवर्गः इत्येषाम् आदेशः इति वार्ता। श्चुना इत्युक्ते संयोजनेन, प्रभावेण, शकारस्य चवर्गस्य च प्रभावेण इति अवगन्तव्यं भवति। सर्वेषां मनसि स्पष्टता अस्ति वा अस्य विषये? अस्तु, अग्रे सरेम। तर्हि मध्ये केचन आगतवन्तः वा अथवा गतवन्तः? बहुवारं ध्वनिः श्रुतः, नूतनतया कोऽपि अस्ति?
आ भगिनि, मम दूरवाण्यां दोषः आसीत्, पुनः आगतवान्।
कः? सञ्जीवमहोदय इति वा? अस्तु, 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 अस्तु महोदय, समीचीनम्। अस्तु, अधुना अजय् महोदय, तर्हि सूत्रस्य अधोभागे उदाहरणद्वयमस्ति, परिशीलयति वा?
भवत् योगः चक्षुः, भवत् चक्षुः तकारस्य स्थाने चकारादेशः, यज् योगः नः, यज् योगः गकारः योगः अह यज्ञः।
तत्र चवर्ग चवर्गस्य अनुनासिकवर्णः अस्ति खलु, यज् योगः
चवर्गस्य अनुनासिक आम्
खखगगञ इति कवर्गस्य अनुनासिकः अन्ते च च ज ज ञ
आम्
अनन्तरम् अह यज्ञः अस्तु तर्हि अधुना प्रथम उदाहरणे किञ्चित् परिशीलनं करोतु कस्मात् परः कः वर्णः इत्यादिकम्
प्रथमं तकारः अस्ति तत् परतः चकारः अस्ति चकारस्य प्रभावेन तकारस्य स्थाने चकारादेशः
हा बहु समीचीनमस्ति चकारस्य प्रभावेण तत्र यथा मया पूर्वोक्तं क्रमः तत्र प्रमुखः नास्ति खलु चुत्वसन्धौ तकारः चकारः अनयोः संयोजनं भूत्वा तकारस्य स्थाने चकारः आदेशरूपेण आगच्छति भवच्चक्षुः अग्रे अग्रिम उदाहरणे महोदय
यज् योगः न जकारः
हा जकारः
जकारः
समीचीनं वदतु
चवर्गे आसीत् अहं न जानामि
भवान् तु अवगच्छति एव जकारः यज् इत्यत्र जकारः कस्मिन् वर्गे चवर्गे
चवर्गे
चवर्गे नकारः
नकारः तवर्गे
तवर्गे पूर्वस्मिन् उदाहरणे भवत्योगः चक्षुः इत्यत्र तवर्गीयवर्णः प्रथमं तदनन्तरं चवर्गीयवर्णः अस्ति खलु
आम्
हा अत्र किं सञ्जातम्
अत्र तवर्गीयस्थाने चवर्गीय आसीत् आदेशः
सत्यम् इति भवच्चक्षुः इत्यत्र द्वितीय उदाहरणे कः प्रथमं कः अनन्तरं
चवर्गीयजकारः प्रथमं तवर्गीयनकारः द्वितीयं तवर्गीयनकारस्य स्थाने चवर्गीय चाचाजान्य आदेशे आदेशः यज्योगः यज्ञयोगः इन्ययोगः अह यज्ञः
यज्ञः तर्हि क्रमस्य प्राधान्यं नास्ति खलु कः कुत्र आगच्छति अनन्तरं कः पूर्वं कः इत्यस्य प्राधान्यं नास्ति इति दृष्टवन्तः अत्र केवलं किम् अपेक्षितम्
अपेक्षितं सकारतवर्गस्य स्थाने सकारचवर्ग चवर्गस्य आदेशः यदि सकारचवर्गस्य योजनेन
हा बहु समीचीनं योजनं सम्पर्कः संयोगः तावदेव अपेक्षितम् अस्ति कः परः कः पूर्वः इत्यस्य प्राधान्यं नास्ति इति वार्ता अस्ति तृतीया विभक्त्याः तादृश अर्थः अस्ति सूत्रेषु अस्तु सम्यक् अस्ति इति उदाहरणं द्वयं दत्तं यत्र क्रमस्य परिवर्तनं जातम् अस्ति तर्हि अजय् महोदय अधुना उपरितनसूत्रे द्वितीयवाक्यं पठतु प्रथमवाक्यं तु स्पष्टमस्ति सकारस्य तवर्गस्य च स्थाने शकारचवर्गस्य आदेशः कदा
यथा सङ्ख्यमनुदेशः समानम् इति परिभाषासूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः सम्बन्धेन
सम्बन्ध्यन्ते
क्षम्यताम्
अर्थः कः किञ्चित् अवगतं वा यथा सङ्ख्यम् अनुदेशः समानं कीदृशं सूत्रमस्ति
परिभाषासूत्रम् अस्ति सकारस्य स्थाने शकारः, तकारस्य स्थाने चकारः, यथा संख्या थकारस्य स्थाने छकारः इति, जकारस्य स्थाने जकारः इति
सूत्रं वदति. बहु समीचीनं महोदय. अर्थः बुद्धः इति भाति. तर्हि वस्तुतः यथासङ्ख्यम् अनुदेशः समानम् इति परिभाषासूत्रमस्ति. परिभाषासूत्रम् इत्युक्ते स्वयं तस्य कार्यं नास्ति, किन्तु अपरेषु सूत्रेषु आगत्य साहाय्यं करोति कार्यस्य पूरणार्थम्. अत्र तु केवलं किमुक्तं, स्तोः श्चुः भवति इति उक्तं खलु. तर्हि सकारस्य स्थाने शकारः इति तु जानीमः. तवर्गस्य का गतिः? भवान् उक्तवान्, हा भवान् उक्तवान् एव पुनः. तवर्गे पञ्च, हा पञ्चवर्णाः सन्ति खलु तवर्गे. तर्हि कस्य स्थाने कः?
तस्थाने च, धास्थाने च, दास्थाने ज, धास्थाने झ, नास्थाने ञ.
हा ञ आगच्छति, समीचीनम्. इति कथं जानीमः? अनेन सूत्रेण, यथा सङ्ख्यम् अनुदेशं समानम् इत्युक्ते सङ्ख्याम् अनतिक्रम्य पञ्च उद्देशिनः सन्ति, पञ्च अनुदेशिनः सन्ति खलु. पञ्च उद्देशिनः त त द द न, अनुदेशिनः च च ज ज ञ इति पञ्च, तत्र सङ्ख्या समानमेव अस्ति. तर्हि सङ्ख्याम् अनतिक्रम्य उद्देशिभिः अनुदेशिनः सम्बध्यन्ते, यथा महोदयेन उक्तं, क्रमेण तकारस्य स्थाने चकारः, थकारस्य स्थाने छकारः, दकारस्य स्थाने जकारः इति आदेशाः भवन्ति इति वदति, यथा सङ्ख्यम् अनुदेशः समानम्. अस्तु, स्पष्टता अस्ति इति भाति सर्वेषां मनसि. अत्र किमपि जाटिल्यं नास्ति इति चिन्तयामि. अस्तु, इतः अग्रे विद्या भगिनी अग्रिमसूत्रं किञ्चित् पठति वा
भगिनि?
एकनिमिष भगिनि, प्रश्नः अस्ति वा?
यज् द्वितीय पदमस्ति, यज् योगः नः, तस्य उच्चारणं कथं भवेत्?
फलस्य वा?
फलस्य उच्चारणं,
हा. वस्तुतः किञ्चित् वैलक्षण्यम् अस्ति एव, यतोहि जकारः प्रथमं च च ज ज ञ इति, अनन्तरं यज्ञः इति वक्तुं शक्यते. महोदय, मम उच्चारणं समीचीनमस्ति न वा इति न जानामि, किन्तु यत्नं कृत्वा जकारः आदौ उच्चारणीयः.
जकारम् अनन्तरं यकार,
सत्यं सत्यं, जकारः प्रथमं, तदनन्तरं तस्यैव वर्गस्य अनुनासिकः. च च ज ज ञ इति तालव्यवर्णः खलु, तर्हि अयम् अनुनासिकवर्णः अपि तालुतः आगच्छेत् इति. यज्ञः, यज्ञः प्रायः.
परन्तु इतोपि किमपि कार्यमस्ति वा तत्र भगिनि? ञः इति अन्यत् वर्णः खलु.
कः वर्णः भगिनि?
यज्ञः, ज्ञा इति ज्ञानं, तत्र ज्ञा
इति तत्तु संयुक्ताक्षरः तावदेव, यत्र यथा भवत्याः नाम्नी एव सावित्री, तकारः रकारः त्री इति भवति, तथा मिलित्वा तादृशलेखनशैली अस्ति तावदेव.
अस्तु,
धन्यवादः. अस्तु, विद्या भगिनि.
शात् शकारात् परस्य तवर्गस्य चुत्वं न स्यात्. स्तोः चुना श्चुः इत्यस्य निषेधकसूत्रम्, शात् पञ्चम्यान्तम् एकपदम् इदं सूत्रम्. तोः षि इत्यस्मात् तोः इत्यस्य अनुवृत्तिः, न पदान्तात् टोरणाम् इत्यस्मात् न इत्यस्य अनुवृत्तिः, तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं शात् तोः न संहितायाम्। अत्र शात् इति स्तोश्चिनाश्चुः इत्यस्य बाधक निषेधकसूत्रमस्ति। सूत्रं वदति यदि शकारस्य अनन्तरं तवर्गस्य कश्चन वर्णः अस्ति चेत् तदा चुत्वं न भवति इति अस्ति। शात् पञ्चम्यन्तम् एकपदमिदं सूत्रम् इत्युक्ते शात् परकार्यं, तस्मात् शकारस्य अनन्तरं तवर्गः अस्ति चेत् तदा स्तोश्चिनाश्चुः न भवति।
समीचीनं, परकार्यं, किन्तु अत्र कार्यं न सञ्जातमेव। किं वदति तर्हि तस्य विषये?
सामान्यतया कार्यं भवति, परन्तु शात् इति सूत्रात् तत्र कार्यं न भवति।
हा, कार्यं न भवति इति एका वार्ता अस्ति, परन्तु निषेधः इति अपि एकं कार्यं खलु। इत्येव सूचयति अत्र निषेधः। शात् पञ्चम्यन्तम् अस्तु, परकार्यं स्यात् इति सर्वम् अङ्गीकुर्मः, किन्तु निषेधमपि एकं कार्यमस्ति, कस्यचित् कार्यस्य निषेधकरणमपि एकं कार्यं, तादृशः अर्थः अत्र। अस्तु भगिनि, अग्रे
अग्रे तोहोषि इत्यस्मात् तोः इत्यस्य अनुवृत्तिः, न पदान्तात् टोरणाम् इत्यस्मात् न इत्यस्य अनुवृत्तिः, तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अनुवृत्तिः इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं शात् तोः न संहितायां, शात् पञ्चम्यन्तं तोः तोः सप्तम्यन्तम्।
हा, यद्यपि तादृश न तोः चिन्तयतु,
षष्ट्यन्तम् इत्युक्ते तस्य स्थाने सामान्यतया कार्यं भवति, परन्तु अत्र निषेधमस्ति, अत्र निषेधः।
हा हा, यदि सप्तमी अभविष्यत् तर्हि तौ इति अभविष्यत् खलु, गुरुः गुरौ।
हा, अत्र षष्ट्यन्तं,
षष्ट्यन्तं
न संहितायां तदेव अस्ति।
शात् तोः किं न?
शात् तोः न चुत्वं,
चुत्वं, समीचीनमस्ति भगिनि। अस्तु, उदाहरणं परिशीलयतु कृपया।
प्रश्नयोगः नः,
प्रश्योगः नः,
क्षम्यतां, प्रश्योगः नः, अत्र शकारस्य अनन्तरं तवर्गस्य अन्तिमवर्णः नकारः अस्ति। अत्र स्तोश्चिनाश्चुः इत्यस्य प्रसक्तिः अस्ति, परन्तु शात् इति निषेधकसूत्रेण अत्र केवलं वर्णमेलनमेव भवति, सन्धिकार्यं नास्ति।
प्रश्नः, प्रश्नः इति अस्ति। हा, बहु समीचीनम्। अस्तु, शात् इति निषेधकसूत्रं तावदेव वक्तव्यम् अस्ति। सूत्रदृष्ट्या श्चुत्वसन्धिविधायकसूत्रमस्ति स्तोश्चुनाश्चुः, अपि च स्तोश्चुनाश्चुः इत्यस्य निषेधं करोति शात् इति सूत्रम् इति एकं विशिष्टसूत्रमस्ति। उदाहरणमपि भगिन्या परिशीलितं, तर्हि अधुना विद्या भगिनी प्रथम उदाहरणं पुनः परिशीलयतु तत्र पुस्तके।
भगवद्योगशक्तिः इति वा? हा, भगवद्योगः शक्तिः, अत्र तकारस्य स्थाने चकार आदेशः भवति दन्त्यशकारस्य प्रभावेन, अत्र स्तोश्चिनाश्चुः इत्यनेन भगवत् शक्तिः इति भवति। अत्र शात् कार्यं न करोति, किमर्थम् इत्युक्ते प्रथमं शकारः नास्ति इति।
बहु सम्यक्, अस्तु, इति एव मनसि निधाय कार्यं प्रवर्तनीयं भवति। शकारात् परतः तवर्गीयः अस्ति चेदेव शात् कार्यं करोति। अत्र कार्यं करोति वा भगिनि?
अत्र शात् कार्यं न करोति।
अत्र तु सामान्य स्तोश्चुनाश्चुः इत्यस्य कार्यम् इत्युक्ते शकारस्य प्रभावेण तकारस्य स्थाने चवर्गीयसदस्यस्य आदेशः इति सामान्य स्तोश्चुनाश्चुः कार्यम् अस्ति। सम्यक् अस्ति, अस्तु इति वार्ता। अपि च अत्र हल् सन्धिविषये संहितायाम् इत्यस्य अधिकारः तयोर्वावचि संहितायाम् इत्यस्मात् आगच्छति. स्वरसन्धिविषये किं वयं दृष्टवन्तः? इतोपि अन्यत् सूत्रमासीत् खलु तत्र, स्मरन्ति वा?
स्वरसन्धिविषये वा?
हा,
संहितायाम् इत्यस्य अधिकारः अत्र,
हा हा, संहितायाम् इति बहुत्र तथा आसीत् खलु, प्रायः, हा, प्रायः सर्वेषु षष्टाध्याये. अत्र हल् सन्धिविषये वयं पश्यामः यत् इतोपि एकं सूत्रम् अस्ति नूतनं, तयोर्वावचि संहितायाम् इति, तस्मात् संहितायाम् इति अधिकारः आगच्छति. वस्तुतः एतत् सर्वं कार्यं भवति कदा? संहितायाः विषये, यदा अत्यन्तं नैकट्यं भवति वर्णयोः मध्ये तदा एव इति अस्ति वार्ता.
किमर्थं द्वे सूत्रे सह भगिनि
इति? तत्र संहितायाम् इति पश्यति चेत् प्रायः षष्टाध्याये कुत्रचित् अस्ति खलु, षष्टाध्यायस्य प्रथमपादे कुत्रचित् अस्ति. तर्हि तस्य षष्टाध्यायस्य तस्मात् आरभ्य कुत्रचित् पर्यन्तमेव तस्य अधिकारः भवति, तदनन्तरं भग्नः भवति अधिकारः. अन्यानि सूत्राणि आगच्छन्ति, अन्यानि कार्याणि भवन्ति, सप्तमाध्याये प्रायः तथा अस्ति. तर्हि पुनः अधिकारः अपेक्षितः हल् सन्धिकार्याणि प्रवर्तयितुं, तदर्थम् इतोपि नूतनसूत्रम् अस्ति अत्र. तयोर्वावचि संहितायाम् इति सूत्रमस्ति, तस्मात् केवलं संहितायाम् इति स्वीकृत्य बहुषु सूत्रेषु स्थाप्यते. अस्तु, कोऽपि प्रश्नः वा?
हा भगिनि, एकः प्रश्नः. प्रश् योग नः, यदि निषेधकसूत्रं नास्ति चेत् फलं किं भवति?
भवान् एव चिन्तयतु, चिन्तनं कारयतु किञ्चित्. स्तोःश्चुनाश्चुः प्रवर्तयित्वा कः? सञ्जीव् महोदय इति वा महोदय?
न, मम प्रश्नः,
प्रायः रविप्रकाश महोदय इति वा कः?
आम् आम्, रविप्रकाश महोदय.
हा हा हा, अस्तु, भवानेव चिन्तनं करोतु महोदय. स्तोःश्चुनाश्चुः शात् न भवति चेत् स्तोःश्चुनाश्चुः कार्यं करोति खलु? हा, तर्हि यदि केवलं चिन्तनार्थम् अधुना वदामः यत् शात् इति सूत्रं नास्ति, तदा स्तोःश्चुनाश्चुः इत्यस्य कार्यं खलु?
खलु,
किं भवति तत्र तर्हि?
शकारः अस्ति, शकारस्य पदे नकारः अस्ति,
अन्ततो गत्वा यथा यज्ञः इति आसीत्, यज्ञः तद्वदेव अत्रापि. प्रश्नः इति किमपि अभविष्यत् किन्तु तथा नास्ति, प्रश्नः एव किञ्चित्
एव.
तर्हि अन्ततो गत्वा फलं किम् अस्ति? तवर्गस्य स्थाने चवर्गस्य आदेशः, तदर्थमेव श्चुत्वम् इति उच्यते. श्चुत्वसन्धिः इत्युक्ते शकारः अथवा चवर्गस्य वर्णः आदेशरूपेण श्चुत्वम्. अत्र तवर्गीयवर्णः अस्ति नकारः, तस्य स्थाने चवर्गस्य ञ इति, यथा यज्ञः इति आसीत् तद्वदेव भवति, किन्तु तथा नास्ति, प्रश्नः. उच्चारणदृष्ट्या अपि काठिन्यम् अस्ति खलु, मम कठिनता अभवत्, प्रश्नः इति किं, हा, तदर्थमेव इति अस्ति, प्रश्नः इति अस्ति. अस्तु
भगिनि, अन्यः विषयः, गते सप्ताहे एकः प्रश्नः आसीत् प्रकृतिभावस्य विषये. अरे देवदत्त आगच्छ इति वाक्ये वाक्यद्वयमस्ति अथवा एकम् एव वाक्यमस्ति इति, किमर्थं चेत् एकं सूत्रमासीत् वाक्यस्य अन्ते एव.
सत्यं सत्यं, तर्हि अरे, हा, अरे देवदत्त इति वाक्यमस्ति न वा इति प्रश्नः आसीत् खलु.
तर्हि मया कस्मिन् पुस्तके दृष्टं, तत्तु वस्तुतः सम्बोधनं भिन्नं वाक्यं भवति.
अस्तु अस्तु, समीचीनं महोदय, धन्यवादः. हा सत्यम् इति वक्तव्यम् आसीत् मया, अपि विस्मृतं. पुस्तकेषु लघुसिद्धान्तकौमुदी इत्यादिषु तादृश उदाहरणमस्ति एव, अरे देवदत्त इति तस्य सूत्रस्य सन्दर्भे.
न, यदि अरे देवदत्त आगच्छ इति अपि वदामश्चेत् तत्र वाक्यद्वयं स्तः, तदा वाक्यद्वयम् अस्ति तत्र. अरे देवदत्त इति भिन्नं वाक्यं भवति, तथा आगच्छति भिन्नं वाक्यं भवति.
अस्तु इति कृत्वा तत्र प्लुतप्रगृह्यौ अचि, प्लुतप्रगृह्य अचि नित्यं कार्यं करोति एव प्रकृतिबाबा. अस्तु सम्यक्, धन्यवादः. अस्तु तर्हि अधुना लक्ष्मी भगिनी, तर्हि प्रथम उदाहरणे एव पुस्तके भगवत् शक्तिः इति तत्र रूपद्वयम् अस्ति खलु?
आं भगिनि.
द्वितीयरूपं किमस्ति?
भगवत् शक्तिः इति अस्ति, चकारादेशः.
हा, तर्हि तृतीयटिप्पणीं पठतु कृपया.
शकारस्य चकारो भवति विकल्पेन.
विकल्पेन इति उक्तं, तस्य कार्यार्थम् इतोपि एकं सूत्रम् अस्ति, करपत्रे दशमबिन्दुं पश्यतु. दशमबिन्दुः वा? हा हा हा, छत्व छत्वसन्धिः इति अस्ति खलु, तत् कृपया. प्राप्तं करपत्रे?
पश्यामि. छत्वसन्धि, आम्, अत्र छत्वसन्धेः सूत्रमस्ति, सच्छोटि. पदान्तस्य झयः उत्तरस्य षकारस्य अटिपरे चकारादेशो भवति अन्यतरस्याम् इति.
अग्रिमवाक्यमपि पठतु कृपया.
ह्यः षष्ट्यन्तं, छः प्रथमान्तम्, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्.
अस्तु अस्तु, तावत् पर्यन्तं. तर्हि तत् किञ्चित् परिशीलयतु, छत्वसन्धिविधायकसूत्रं किमस्ति?
सच्छोटि.
सूत्रं किं वदति?
अत्र पदान्तस्य झयः इत्युक्ते, अत्र यदि झय् प्रत्याहारस्य कोऽपि वर्णः पदान्ते चेत्.
झै प्रत्याहारे के के वर्णाः? तर्हि यथा यथा मया पूर्वम् उक्तमासीत्, माहेश्वरसूत्राणि इति करपत्रमस्ति, तस्मात् वा अथवा पुस्तकस्य पञ्चमपृष्ठे यदस्ति तत् हा तत् कुत्रचित् प्रिण्ट् औट् स्वीकृत्य स्थापयन्तु, सौकर्यं भवति तदा. अस्तु, झै प्रत्याहारे भगिनि?
झै प्रत्याहारे झाभा, घडध, जबगडद, खफ, झटथ, झटत, कप इत्युक्ते प्रथम द्वितीय तृतीयसदस्याः,
तृतीयचतुर्थः अपि,
चतुर्थः सदस्याः.
पञ्चमे पृष्ठे सर्वे पश्यन्ति चेत् माहेश्वरसूत्रेषु तत्र अष्टमसूत्रमस्ति झभै, खलु? हा, झभै अष्टमसूत्रात् आरभ्य कपै पर्व कपै पर्यन्तं, तत्र द्वादशसूत्रम् अस्ति, तावत् पर्यन्तं झै प्रत्याहारः भवति. तस्मात् पूर्वं किमस्ति भगिनी सप्तमसूत्रम्?
सप्तमसूत्रं यमगणनं, अनुनासिकवर्ण, सर्वे अनुनासिकव्यञ्जनानि.
हा हा, सर्वाणि अनुनासिकव्यञ्जनानि. तर्हि तानि त्यक्त्वा, अनुनासिकव्यञ्जनानि त्यक्त्वा, वर्गस्य अन्ये सर्वे सदस्याः झय् प्रत्याहारे, वर्गीयव्यञ्जनानाम् अन्ये सदस्याः झय् प्रत्याहारे अन्तर्भूताः, खलु? इति वक्तुं शक्यते, अनुनासिकव्यञ्जनानि त्यक्त्वा. अस्तु, झय् इति तादृशप्रत्ययः अस्ति. सूत्रं किं वदति?
पदान्तस्य झयः झयः उत्तरस्य शकारस्य इत्युक्ते अत्र उदाहरणे
भगवत् योगः शक्तिः तत्र किमस्ति
अत्र प्रथमवर्णः अत्र प्रथमवर्णः झै प्रत्याहारस्य वर्णः अनन्तरं तालवेशकारः अनन्तरम् अट् प्रत्याहारस्य वर्णः इत्युक्ते अकारः अस्ति तस्मिन् सन्दर्भे छत्वसन्धिः भूत्वा छकारादेशो भवति तदर्थं भगवच्छक्तिः इति शब्दं निष्पन्नं भवति
हा शब्दः निष्पन्नः बहु समीचीनमस्ति भगिनि अस्तु अधुना तावत् पर्याप्तम् अग्रे गत्वा यदा छत्वसन्धेः पाठः भवति तदा इतोपि गभीरतया परिशीलयिष्यामः अस्तु अस्तु भगिनि तर्हि पुनः द्वितीयम् उदाहरणं किञ्चित् कारयतु
आश्चर्यवत् योगः च आश्चर्यव योगः तकारः योगः चकारः योगः आ अत्र चकारस्य प्रभावेण तकारस्य स्थाने चकारादेशो भवति स्तोश्चुनाश्चुः इति सूत्रमत्र कार्यं करोति तदर्थमत्र आश्चर्यवच्च इति पदं निष्पन्नं भवति
समीचीनं तकारस्य चकारस्य प्रभावेण तकारस्य स्थाने चकारः आश्चर्यवच्च अस्तु सम्यक् इति उदाहरणानि आसन् सञ्जीव महोदय भवता गन्तव्यमस्ति खलु तर्हि अग्रिम उदाहरणद्वयं कारयति वा
जगत् तृतीय उदाहरणमस्ति जगत् योगः छत्रं तत्र जग योगः तकः योगः छकारः योगः अत्रं तत्र फलति जग योगः चकारः तकारस्य चकारे परिवर्तनं स्तोश्चुनाश्चुः सन्धेः कारणात् अनन्तरं पुनः योगः
सूत्रस्य कारणात्
सूत्रस्य कारणात् जग योगः चकारः योगः छकारः योगः अत्रं फलितपदं भवति जगच्छत्रम् इति
हा बहु समीचीनमस्ति जगच्छत्रम् इति अस्ति तर्हि छकारस्य प्रभावेण तकारस्य स्थाने चकारः स्तोश्चुनाश्चुः एव अस्तु अग्रे महोदय
चतुर्थोदाहरणं यद् योगः जुहोषि अत्र य योगः दकारः योगः जकारः योगः उहोषि अत्र दकारस्य परिवर्तनं भवति जकारे तत्र जकारः परे अस्ति इति कारणात् यकारः योगः जका य योगः जकारः योगः जकारः योग होषि अन्तिमपदं भवति यज्जुहोषि
यज्जुहोषि इति भवति अस्तु समीचीनं तर्हि एवमेव वक्तव्यमस्ति यत् यद् योगः जुहोषि इति यत् यदस्ति तत्र आरम्भे यत् इति आसीत् तकारः तकारः पुनः तस्य परिवर्तनं जातं जस्त्वसन्धिः भूत्वा तत्र सूत्रं किमस्ति झलां जशोन्ते इति कथमं सूत्रं हा
तर्हि
हा पश्यति वा तृतीयबिन्दुः करपत्रे
अस्ति
प्रथमवाक्यं पठतु
पदान्ते झलः स्थाने जशादेशो भवति प्रथमवाक्यं तं पदात्परे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसक्तिः अस्ति एव पदात्परे अच् स्यात् हल् स्यात् वा सूत्रस्य प्रसक्तिः अस्ति एव
हा तावत् महोदय तर्हि तादृशी स्थितिः अत्र अस्ति वा यत् इत्यत्र
यत् यदि केवलं यत् इति वदामश्चेत् तादृशी स्थितिः अस्ति, पदात् परे कोऽपि वर्णः न अस्ति
नास्ति, परन्तु कोऽपि वर्णः अस्ति वा नास्ति वा इत्यस्य प्राधान्यं नास्ति, सूत्रं कार्यं करोति एव. हा तर्हि यत् इत्यत्र, हा यत् इत्यत्र पदान्ते झल् खलु, तर्हि यत् इत्यस्मिन् किञ्चित् परिशीलनं करोतु.
यत् तत्र पदान्ते तकारः अस्ति झल् प्रत्याहारे,
सत्यं, तर्हि झल् प्रत्याहारे के के वर्णाः सन्ति?
झल् प्रत्याहारे झ भ घड ध जब गड द खफ छ ठ खफ छ ठ थ चट त कप श स ह
श स ह. वस्तुतः अनुनासिकव्यञ्जनानि त्यक्त्वा अन्यानि सर्वाणि व्यञ्जनानि झल् प्रत्याहारे सन्ति खलु. अनुनासिकव्यञ्जनानि अपि च हयवर ल त्यक्त्वा, ह अपि अस्ति, यवर ल त्यक्त्वा सर्वाणि व्यञ्जनानि झल् प्रत्याहारे अन्तर्भूतानि. अस्तु, तादृशस्थितिः अस्ति यत् यत् पदमस्ति तर्हि पदान्ते झल् वर्णः अस्ति, झलः स्थाने कः आदेशः भवति?
जश्.
जश् जश् इति वर्गस्य तृतीयवर्णाः जबगडद. अस्तु, समीचीनम्. इति कृत्वा एव यद् इति आगतं तत्र.
तत्रकारस्य स्थाने दकार,
यज्जुहोषि इति भवति.
तस्य वर्गस्य एव तृतीयवर्ण आदेशः भवति जश्.
किं, हा जश् इत्युक्ते तृतीयवर्णः, वर्गस्य तृतीयवर्णाः एव जश् प्रत्याहारे अन्तर्भूतः इति जष्ट्वसन्धिः. प्रथमं जष्ट्वसन्धिः भूत्वा यद् इति भवति, तदनन्तरं यद्योगः जुहोषि. भवान् परिशीलितवान् एव स्तुत्वसन्धिः कथं भवति इति. समीचीनं तर्हि. अस्तु, हा अग्रिम उदाहरणं किञ्चित् जटिलम् अस्ति, तर्हि सुब्रह्मण्यमहोदय कारयति वा?
आं भगिनि, अत्र पश्यन् योगः शृण्वन्, अत्र पश्य योगः नकार न योगः श योगः शृण्वन्, अत्र नकारस्य स्थाने पश्यन् इत्यस्मिन् पदा इत्यस्य पदान्ते यः नकारः अस्ति तस्य स्थाने ण्यकारः आगच्छति शकारस्य प्रभावेन स्तोः श्चुनाश्चुः इति सूत्रात्. अतः अत्र प्रथमरूपमस्ति पश्यन् पश्यन् शृण्वन् इति एकं रूपमस्ति, अनन्तरं बहु किमपि भवति अत्र. अत्र यदा शकारः अस्ति अत्र
करपत्रे करपत्रे अन्तभागे महोदय
परिशीलयतु, परन्तु अत्र अस्तु भगिनि करपत्रं गच्छामि अत्र अन्ततो गत्वा अत्र
एकनिमिष. तर्हि प्रथमरूपं तु बहु सरलमेव अस्ति, सर्वे अवगन्तुं शक्नुवन्ति इति भाति. पश्यन् योगः शृण्वन् सामान्यपरिस्थितिः, नकारस्य स्थाने दन्त्यनकारस्य स्थाने तालव्य अनुनासिकवर्णस्य आदेशः भवति, शकारः परः अस्ति इति कृत्वा, यथा भवत् शक्तिः समानस्थितिः, तवर्गीयवर्णः तदनन्तरं शकारः, तर्हि हा नकारस्य स्थाने यकारः, पश्यन् शृण्वन् इति स्तोश्चुनाश्चुः. परन्तु ततः अग्रे यत्किमपि दृश्यते पश्यन् छकारं छकारः इत्यादिकं तस्य विषये परिशीलनम् अपेक्षितमस्ति. सर्वे कृपया करपत्रस्य अन्तः अधोभागे गच्छन्तु, परिशिष्टम् इति अस्ति तत्र, कृपया पश्यन्ति
वा? पदान्ते नकारः ततः अग्रे शकारः, इदानीम् अत्र द्वितीय पक्षे अत्र प्रथमपक्षे तु यथा वयं दृष्टवन्तः इदानीं नकारस्य स्थाने ण्यकारः शकारस्य प्रभावेन, अतः पश्यन् पश्यन् शृण्वन् इति रूपं निष्पन्नं भवति. अनन्तरम् अन्यस्मिन् पक्षे अत्र यत्र नकारस्य स्थाने ञकारः न आगच्छति इदानीम् अत्र नकार पदान्ते नकारः ततः अग्रे शकारः तत्तु अस्ति एव अत्र पश्यन् इत्यस्मिन् पदान्ते नकारः शृण्वन् इत्यस्मिन् पदादौ शकारः अस्ति अत्र नकारः अनन्तरं शकारः अस्ति अतः इदानीं अत्र करपत्रात् पठामि वा भगिनि
करपत्रात् कृपया परिशिष्टम् इति यदस्ति
संयोगः शम्भु शम्भुः इति उदाहरणं दत्तमस्ति अत्र अत्र चत्वारि रूपाणि सम्भवन्ति प्रथमम् अस्ति संशम्भुः द्वितीयमस्ति संशम्भुः तृतीयम् अस्ति शम्भुः चतुर्थमस्ति संशम्भुः
एकनिमिषं महोदय सर्वे पश्यन्ति वा महोदय यत् पठति करपत्रस्य अधोभागे अन्तः करपत्रस्य अन्ते साक्षात् अन्ते परिशिष्टम् इति दत्तमस्ति समान एव परिस्थितिः अस्ति संयोगः शम्भुः इत्युक्ते नकारात् परतः शकारः यथा पश्यन् शृण्वन् तदर्थमेव तदुदाहरणं दत्तमस्ति अस्तु तत्र रूपचतुष्टयं सम्भवति कथम् इत्यस्य व्याख्या
अत्र प्रथममस्ति संयोगः शम्भुः शी तुक् इति सूत्रमस्ति इत्यनेन तुक् आगमः विकल्पेन भवति इत्युक्ते अत्र तुक् आगमः कुत्र भवति इत्युक्ते नकारस्य आगमः अतः अनन्तरं भवति आद्यन्तौ टकितौ इत्यनेन
प्रायः
भवति
प्रायः शी तुक् इत्यस्य प्रथमवाक्यं पठित्वा किञ्चित्
शी तुक् पदान्तस्य नकारस्य विकल्पेन तुक् आगमो भवति शकारे परे अत्र शीतुक् इत्युक्ते पदान्तस्य नकारस्य इत्युक्ते सन् इत्यस्मिन् पदे नकारः पदान्ते अस्ति तस्य विकल्पेन तुक् आगमः भवति इत्युक्ते तकारः आगमः भवति कदा इत्युक्ते शकारे परे शम्भुः इत्यस्मिन् पदादौ शकारः अस्ति अतः शीतुक् इत्यस्य प्रसक्तिः अत्र अस्ति अपि च एतत् विकल्पेन भवति इत्युक्ते
एकस्मिन्
पक्षे भवति एकवारं न भवति इति अतः संयोगः शम्भुः अत्र तुक् आगमः इत्युक्ते नकारस्य विकल्पेन तुक् आगमः भवति शकारे परे तुक् आगमः इत्युक्ते तुक् इति कित् अस्ति किमर्थं चेत् अत्र ककारः अन्ते अस्ति तस्य इत्संज्ञा अस्ति अतः आद्यन्तौ टकितौ इत्यनेन अत्र तुक् आगमः नकारस्य अनन्तरं भवति ततः संयोगः तकारः योगः शम्भुः इदानीं किं भवति अत्र तकारः प्रथमम् अस्ति अनन्तरं शम्भुः इत्यस्मिन् शकारः अस्ति अतः स्तोःश्चुनाश्चुः इति सूत्रेण तकारस्य स्थाने चकारः शकारस्य प्रभावेण अतः संयोगः च योगः शम्भुः इति भवति अनन्तरं सन् इत्यस्मिन् नकारः अनन्तरं चकारः अस्ति पुनः स्तोःश्चुनाश्चुः इत्यनेन नकारस्य स्थाने चकारस्य प्रभावेन ञकारः आगच्छति अतः सञ् योगः च योगः शम्भुः यदा तथा भवति इदानीं वयं दृष्टवन्तः षश्चोटि इति सूत्रं झयः उत्तरस्य शकारस्य स्थाने छकारादेशः भवति अटिपरे अत्र सर्वाणि निमित्तानि अस्ति अत्र झयः उत्तरस्य चकारः झय त झै प्रत्याहारस्य कश्चन वर्णः शकारः अनन्तरमस्ति, तस्य स्थाने छकारादेशः भवति, अतिपरे शम्भुः इत्यस्य शकारपरः परतः अकारः अस्ति, अतः षष्ठोटि इत्यनेन अत्र विकल्पेन, पुनः एतदपि विकल्पेन एव, अतः संयोगः च योगः शम्भुः। इदानीं किं भवति इत्युक्ते अत्र झरोझरि सवर्णे इति सूत्रं पुनः विकल्पेन किं करोति इत्युक्ते अत्र हल् उत्तरस्य झरः विकल्पेन लोपः भवति सवर्णझरि परे, इत्युक्ते हल् वर्णः अत्र ञकारः, उत्तरस्य झर् वर्णः चकारः, तदनन्तरं सवर्णझर् वर्णः अस्ति इत्युक्ते छकारः, अतः यः झर् वर्णः अस्ति तस्य लोपः भवति इत्युक्ते चकारस्य लोपः भवति, अतः विकल्पेन संयोगः छम्भुः संछम्भुः इति रूपं निष्पन्नं भवति।
हा, इति प्रथमं रूपमस्ति, समीचीनं। पुस्तके वस्तुतः उदाहरणे तदेव प्रदर्शितं, प्रथमरूपं यदस्ति संछम्भुः तदेव पश्यन् शृण्वन्। चकारः महाप्राणचकारः कथम् आगतः इति प्रदर्शितम् अस्ति तावदेव। अस्तु, एतत् सर्वं कार्यं कृत्वा सः चकारः इति तिष्ठति इति अस्ति, समीचीनमस्ति महोदय। तर्हि इतोपि रूपचतुष्टयं सम्भवन्ति, क्षम्यतां, त्रीणि रूपाणि इतोपि अवशिष्टानि सन्ति, विकल्पेन विकल्पेन इति बहुत्र उक्तं खलु, षष्ठोटि विकल्पेन, शीतुकपि विकल्पेन, वैकल्पिकं सूत्रं कार्यं न करोति चेत्, इत्युक्ते वैकल्पिकसूत्रस्य कार्यं विकल्पेन एव भवति, कार्यं कर्तुम् आगच्छति किन्तु एकवारं कार्यं करोति, एकवारं न करोति, कार्यं न करोति चेत् तदा अन्यानि रूपाणि सम्भवन्ति इति अग्रिमबिन्दुः अस्ति। तत्र रामप्रिया भगिनी अग्रे पठति वा करपत्रे एव?
आं भगिनि, परिशिष्टमेव किल।
हा, अग्रिमपरिच्छेदः झरोझरि सवर्णे।
झरोझरि सवर्णे इत्यनेन विकल्पेन चकारस्य लोपो न भवति चेत् संछम्भुः इति द्वितीयरूपम्। षोटि षष्ठोटि इत्यनेन विकल्पेन चकारादेशो न भवति चेत् संछम्भुः इति तृतीयरूपम्। शीतुक् इत्यनेन विकल्पेन तुक् आगमो न भवति चेत् संछम्भुः इति चतुर्थरूपम्। एवं यत्र यत्र पदान्ते नकारः तत्र ततः अग्रे शकारः, तत्र सर्वत्र वैकल्पिकरूपचतुष्टयम्, यथा पश्यन् योगः शृण्वन्, गच्छन् योगः शिक्षकः इति। अत्र झरोझरिसवर्णे चकारस्य लोपः न भवति चेत् द्वितीयरूपम् अस्ति संछम्भुः। उदाहरणं परिशीलयामः वा भगिनि?
तर्हि अन्तिमसोपानं किम् आसीत् सुब्रह्मण्यमहोदयस्य परिच्छेदे?
झरोझरिसवर्णे आम्, तत्र हल् उत्तरस्य जरः विकल्पेन लोपः यदा सवर्णझरि परे अस्ति चेत्, अत्र संछम्भुः इति प्रथमरूपम् आगच्छति।
हा, विकल्पेन इत्युक्ते एकवारम् एकवारं भवति, एकवारं न भवति इति अर्थः। तर्हि सः लोपः न अभवत् इति चिन्तयतु, तदा किं भवति?
तथा वयं विकल्पेन एतद् रूपं न भवति चेत्
झरोझरि सवर्णे पूर्वं किम् अभवत्, किं सोपानम्?
ओ ओ, तथा संछम्भुः इति एतद् द्वितीयरूपं।
हा इत्युक्ते चकारः अल्पप्राणचकारः तिष्ठति यथावत् इति द्वितीयरूपं किन्तु तावत् पर्यन्तम् अन्यानि सोपानानि समानानि एव शीतुक् सुहोश्चुनाश्चुः द्विवारं षष्टोट्टि भूत्वा सञ्चम्भुः इति द्वितीयरूपम् अग्रे
अग्रे अग्रिमसूत्रं वा
हा द्वितीयरूपम् इति अस्ति ततः
द्वितीयरूपं
तस्मात् अनन्तरं किम् अस्ति षष्चोटि इत्यनेन
षष्चोटि इत्यनेन जयः उत्तरस्य शकारस्य अटि परे चकारादेशः विकल्पेन तत्र वैकल्पिकरूपम् इदानीं किं भवति इत्युक्ते जयः उत्तरस्य अस्ति चेत् चकारस्य अटि परे चकारादेशः विकल्पेन भवति तत्र एव सञ्चम्भुः इति द्वितीयरूपम् आगच्छति तदपि वैकल्पिकरूपम् अस्ति तद् न भवति चेत् तृतीयरूपं स्तोष्टुनाश्चुः इति सूत्रेण सञ्चम्भुः इति भवति
हा सञ्चम्भुः शकारघटितरूपं सञ्चम्भुः इति तृतीयरूपं भवति अस्तु अन्ते
सञ्चम्भुः इति स्तोश्चुनाशुः इत्यनेन नकारस्य चत्वादेशः तदपि न भवति ततो नित्यं किल
हा स्तोश्चुनाश्चुः इति नित्यं
नित्यं
तर्हि प्रथमसूत्रं किम् आसीत्
शीतुक् शीतुक् तत् तत् विकल् वैकल्पिकरूपं संयोगः तकारः योगः शम्भुः तत्र स्तोश्चुनाश्चुः प्रसक्तिः तत्रापि अस्ति इत्यनेन तकारस्य चुत्वादेशः संयोगः चकारः योगः शम्भुः तत्र सञ्शम्भुः इति चतुर्थरूपम्
समीचीनं तर्हि शीतुक् न भवति चेत् रूपं किं
सञ्शम्भुः
हा सामान्यरूपं सामान्यश्चित्वसन् अस्तु इति अस्ति वार्ता एवमेव तदेव प्रदर्शितं पश्यन् शृण्वन् इत्यत्र प्रथमरूपं तदेव आसीत् सामान्यश्चित्वश्च सन्धिं कृत्वा नकारस्य स्थाने चवर्गस्य अनुनासिकञ चजञ अस्तु इति रूपचतुष्टयम् अस्ति इति अस्तु करपत्रस्य अधोभागे एकं चित्रम् अस्ति
प्रश्नः यज्ञ इति पदमस्ति तत्र यज् योगः नकारस्य परिवर्तनं यकारे जायते तत्र यज् इति पदस्य धातोः अर्थः जातः परन्तु प्रश् इति पदमस्ति किम् प्रश्नः इति
तर्हि कः धातुः इति पृच्छति भवान्
धातुः अथवा पदम्
ओ अस्तु प्रायः तत् प्रश्नः तु पृच् धातुतः पृच्छति पृच्छति इति खलु तस्य शकारत्वेन परिवर्तनं कथञ्चित् जायते अनन्तरं वस्तुतः नः इति यदस्ति सः भागः कश्चन प्रत्ययः एव स्यात्
प्रच्छ परिवर्तन
हा
तत्रापि श्चुत्वम् अस्ति
न प्रायः कश्चन आदेशः भवति
कः
इति न स्मरामि किन्तु हा बस् अनन्तरं प्रायः अन्विष्य वदिष्यामि तस्मात् धातुतः आगच्छेत्
अस्तु शुभं धन्यवादः
अस्तु समीचीनं तर्हि अस्तु इदानीं पुनः पुस्तकं प्रति गच्छामः सरला भगिनी एतानि उदाहरणानि परिशीलयत इत्यत्र अन्तिम उदाहरणमस्ति परिशीलयति वा
यज्ञात् ज्ञानयज्ञ
हा
ओके यज्ञात् योगज्ञानयज्ञ अत्र तकार दन्तीयवर्गः अस्ति एण्ड् जकार च वर्गीय तस्य योजनेन तकारस्य स्थाने जकार आगच्छति तस्य कारणमस्ति प्रथमं यज्ञात् झलो जशान्ते यज्ञात् भवति दकार आगच्छति तस्य अनन्तरं दकारस्य स्थाने जकार आगच्छति क्रमेण दकार तृतीयवर्गः अस्ति दन्त्यवर्गस्य जकार तृतीयवर्गः भवति च वर्गीयस यत् जकार आगच्छति तत्र जज्ञा जज्ञानयज्ञ इति सम्पन्नं भवति.
अन्ततो गत्वा कस्य स्थाने कः आदेशः?
अन्ततो गत्वा प्रथमं तकारस्य स्थाने दकार आगच्छति झलो जशान्ते इति सूत्रेण. तत्र दकारस्य स्थाने जकार आगच्छति, जकार तस्य परे अस्ति,
बहु समीचीनमस्ति भगिनि. तर्हि सर्वे पश्यन्तु, यथा भगिन्या उक्तं यज्ञात् ज्ञानयज्ञः झलां जशोन्ते. यज्ञात् इति स्वयं पदमस्ति वा?
यज्ञात् स्वयं पदमस्ति आं भगिनि,
पञ्चमी विभक्ति. तर्हि यज्ञात् इत्यस्य परिवर्तनं भवति यज्ञाद् इति झलां जशोन्ते. तर्हि दकारः, दकारस्य स्थाने पुनः कः वर्णः आगच्छति भगिनि?
दकारस्य स्थाने पुनः जकार आगच्छति, तस्य परे जकार अस्ति, ज्ञानस्य संयुक्त अस्ति, जकार प्रथमम् अस्ति, तस्य तृतीयवर्ग च वर्गीयस्य तृतीयवर्गं जकार अस्ति, दकार त वर्गस्य तृतीयवर्गः अस्ति. सो यथा स्थानान्तरं तस्य क्रमेण जकार आगच्छति तत्र.
समीचीनमस्ति.
दकारस्य स्थाने,
दकारस्य स्थाने जकारः इति अन्ततो गत्वा प्रभावः स्तोश्चुनाश्चुः इत्यस्य. अधुना भगिनी भवती एव वदतु, भगवत् योगः शक्तिः अथवा आश्चर्यवत् योगः च इति प्रथम उदाहरणद्वयमस्ति खलु? तत्र का स्थितिः? तत्र किमर्थं झलां जशोन्ते कार्यं न करोति? पदान्तः अस्ति, पदान्ते झल् वर्णः अस्ति, झल् झल् प्रत्याहारे वयं दृष्टवन्तः अनुनासिकव्यञ्जनान् अपि च यवरल विहाय सर्वाणि
सर्वाणि अस्ति. तत्र शकार प्रत्याहारे नास्ति
इति एकम् इतोपि एकं विलक्षणसूत्रम् अस्ति. खरीच इति एकं सूत्रमस्ति. खर् प्रत्याहारे के के वर्णाः सन्ति भगिनि?
खर् प्रत्याहारे ख प छ ठ थ च ट त क प य श ष स द्वितीय प्रथम वर्ग अपि श ष स
वर्गस्य द्वितीय प्रथमसदस्याः अपि च च
ष
षकारः खर् प्रत्याहारे अस्ति न वा? भगवत् अस्ति खलु, अतः अत्र खरी च इति कार्यं कृत्वा चर्त्वादेशः भवति. चर् इत्युक्ते प्रथमवर्णः एव तिष्ठति इति.
अस्तु,
इति वार्ता अस्ति. आश्चर्यवत् योगः च इत्यत्रापि चकारः तथा एव अस्ति इति कृत्वा खरी च कार्यं करोति, झलां जशोन्ते तत्र कार्यं न करोति. अस्तु, इति मनसि भवेत्.
अस्तु
अस्तु, तर्हि अग्रे पठतु भगिनि, अग्रिमवाक्यद्वयमस्ति.
एतेषु उदाहरणेषु तवर्गात् परतः शकार च वर्गौ स्तः. तत्र तवर्गस्य स्थाने च वर्गः आदेशसम्पन्नः. तत्र तकारादीनां चकारादय यथासङ्ख्यम् आदेशः भवति. अतः स्तोश्चुनाश्चु तस्य विवरणम् अस्ति सूत्रस्य. सवर्गात् परत शकार च वर्गौ स्तः. यदि तवर्ग अस्ति तस्य परत शकार वा च वर्ग व्यञ्जनाः सन्ति. तत्र तवर्गस्य स्थाने च वर्ग आदेश आगच्छति. यथा शुचु वयं स्तोष्णाश्चु श्चुः च वर्ग आदेशसम्पन्नं भवति. तत्र तकारादीनां चकारादय यथासङ्ख्यम् आदेशः भवति. यथासङ्ख्यम् इति सूत्रेण क्रमेण च वर्गीयस्य आदेशत वर्गीयस्य स्थाने आगच्छन्ति.
समीचीनं. यथा सङ्ख्यम् अनुदेशः समानम् इति सूत्रम् अस्तु इति कृत्वा स्तुत्वसन्देहे परिचयः प्राप्तः अस्माभिः. एतावदेव अस्ति. स्तोश्चुनाश्चुः शात् इति मनसि भवति चेत् सर्वत्र स्तुत्वसन्धिं कारयितुं शक्नुमः. अपि च झलां झषुन्ते यदा कदापि तादृशप्रसङ्गः भवति पदान्तस्य झल् वर्णः तत्र झलां झषुन्ते इत्यनेन झष्त्वं कारयित्वा तदनन्तरं स्तोश्चुनाश्चुः इत्यनेन श्रुत्वं करणीयं भवति. यथा अस्माभिः दृष्टम् एका विशिष्टपरिस्थितिः अपि अस्ति खरी च अग्रे खर् वर्णः अस्ति न वा इति द्रष्टव्यं. खर् वर्णः अस्ति चेत् तत्र झष्त्वं न अपेक्षितं. स्तोश्चुनाश्चुः इत्यनेन कार्यं प्रवर्तनीयं भवति. अस्तु अस्तु अस्तु. तर्हि सावित्री भगिनी अस्ति वा? सावित्री भगिनी अथवा सुमित्रा भगिनी, अन्ये के के सन्ति? राधिका भगिनी अस्ति वा? अस्ति किम्
भगिनी? अहं पठितुं शक्नोमि, इदानीं वाहने भवामि.
ओ अस्तु, क्षम्यतां क्षम्यताम्. अस्तु जानामि. अस्तु रविप्रकाशमहोदय.
आं भगिनि,
अग्रे कृपया पठतु.
अतः षकारचवर्गाभ्यां योगे सकारस्य षकारः षकारचवर्गाभ्यां योगे सवर्गस्य चवर्गः आदेशो भवति. निषेधः षकारात् परस्य सवर्गस्य च्युत्वं न भवति. यथा विश्योगनः विष्णः प्रश्योगनः प्रश्नः. अस्मिन् सन्धौ ष चवर्गः इत्येतौ आदेशौ भवतः, अतः च्युत्वसन्धिः इति नाम.
सारांशः कः महोदय?
सारांशः षकारचवर्गाभ्यां योगे सकारस्य षकारः षकारात् परे चवर्गीयवर्णानाम् अस्ति चेत् सकारस्य स्थाने षकारादेशः भवति.
अस्तु, अत्र पूर्वं वा परं वा न उक्तं खलु? वयम् आरम्भे एव दृष्टवन्तः क्रमस्य प्राधान्यं नास्ति. अतः किमुक्तं? योगे.
योगे, ओके. शकारस्य चवर्गीयवर्णस्य योगे सकारस्य स्थाने षकारादेशः भवति.
हा, इति तु जानीमः एव.
षकारचवर्गाभ्यां योगे सवर्गस्य चवर्गः आदेशो भवति. षकारचवर्गाभ्यां योगे
तत्र जाटिल्यं कुत्र अस्ति महोदय? एतावत् पर्यन्तम् उदाहरणानि दृष्टवन्तः खलु, सकारस्य षकारः इति आदौ शिशुश्येते, शिशुस्योगः शेते, शिशुश्येते, हा तादृशमस्ति. षकारचवर्गाभ्यां योगे तदपि दृष्टवन्तः, भगवत्योगः शक्तिः खलु? षकारस्य योगे तकारस्य किम् अभवत्?
षकारस्य योगे चकारः
कुत्र भगवत् शक्तिः इति पश्यति वा?
भगवत् शक्तिः तकारस्य स्थाने चकारादेशः.
तावदेव, तत् सर्वं मिलित्वा भगवत् शक्तिः. अग्रिम उदाहरणं परिशीलयतु.
उदाहरणं भगिनि? आश्चर्यवत्,
हा सत्यम्,
आश्चर्यवत् योग च, आश्चर्यव च यदापि चकारस्य स्थाने चकारादेशः आश्चर्यवच्च,
आश्चर्यवच्च इति स्तोश्चुनाश्चु तावदेव खलु, स्तोः इत्युक्ते सकारस्य वा तवर्गस्य स्थाने श्चुः शकारः अथवा चकारः, कदा शवर्गचवर्गाभ्यां योगे तदा. अस्तु अग्रे, हा अग्रिमपुटे उदाहरणं परिशीलयतु. निषेधः इति यत् अस्ति तत्
निषेधः शकारात् परस्य सवर्गस्य चुत्वं न भवति. एतो शात् सूत्रं
सत्यं, हा समीचीनं, शात् इति सूत्रं, शकारात् परः यः कोऽपि तवर्गीयवर्णः भवति चेत् तत्र किमपि न भवति परिवर्तनं. अस्तु अग्रे तर्हि पठतु उदाहरणम्.
उदाहरणं विष् योग नः विष्णः, प्रश् योग नः प्रश्नः. इदानीं स्तोः स्तुनाश्चुः कार्यं न करोति.
अस्तु अन्तिमवाक्यं कृपया.
अस्मिन् सन्धौ शृ च वर्गः इत्येतौ आदेशौ भवतः, अतः श्चुत्वसन्धिः इति नाम.
अस्तु इति स्पष्टं स्यात्. शकारः अपि च चवर्गः आदेशरूपेण आगच्छति इति कृत्वा श्चुत्वसन्धिः इति नामकरणं सञ्जातमस्ति. तर्हि एका टिप्पणी अस्ति अधोभागे, कृपया पठतु महोदय. योगः इत्यस्य
योगः सम्बन्धः, अतः सकारातवर्गाभ्यां परौ एव शकारचवर्गौ भवेतामिति न नियमः, तस्मात् ताभ्यां तयोः परयोः इति नार्थः, किन्तु सम्बन्धमात्रं. सम्बन्धश्च पूर्वस्य परेण इव परस्य पूर्वेणापि भवितुमर्हति.
किं बुद्धं?
योगः इत्युक्ते सम्बन्धः, सकारसवर्गाभ्यां परौ एव शकारचवर्गौ भवेतामिति न नियमः.
तदर्थमेव मया उक्तं सकारे परे.
परं किं पूर्वं किं महत्वः नास्ति.
सत्यं, परं किमस्ति पूर्वं किमस्ति इत्यस्य महत्वं नास्ति.
नास्ति
सम्बन्धः अथवा सम्पर्कः, स्पर्शः, तादृशनैकट्यम् अपेक्षितं सकारतवर्गाभ्याम् अपि च शकारचवर्गाभ्याम् अनयोः मध्ये. सकारतवर्गयोः शकारचवर्गयोः मध्ये सम्बन्धः, सम्पर्कः अपेक्षितः, कः पूर्वः कः परः इति वार्ता नास्ति. अस्तु समीचीनम्. इति एव अस्ति तृतीया विभक्तिः, यत्र कुत्रापि सूत्रे दृश्यते तस्य अर्थः एवमेव अस्ति, सम्बन्धः, योगः, सम्पर्कः. स्तोः श्चुनाश्चुः इत्यत्र श्चुना तृतीया विभक्तिः अस्ति खलु, गुरुणा इव. अस्तु तर्हि अग्रे अभ्यासप्रश्नाः सन्ति, एकवारं झटिति परिशील्य समापयिष्यामः. सादे महोदय अस्ति वा?
हा भगिनि.
अभ्यासाः इति अस्ति, कृपया.
अस्तु, हरिश् योगः शेते, सकारः योगः शकारः, सकारः स्थाने शकारः आदेशः भवति, हरिश्येते.
बहु समीचीनं महोदय, सकारस्य स्थाने शकारः, स्तोश्चुनाश्चुः इति सूत्रमस्ति. अग्रे
स्याद् योगः जनार्दन, आम् पूर्वं चष्ट्वसन्धिः.
बहु सम्यक्. आदौ स्यात् इति आसीत्, खलु तकारः आसीत् जष्ट्वसन्धिः भूत्वा स्याद् इति दकारः आगच्छति. अधुना स्याद् योगः जनार्दन जनार्दन तत्र कः सन्धिः भवति?
आम् तकारः स्थाने चकारः आदेशः भवति. स्याद् जनार्दन
भवान् भवता यदुक्तं तत् समीचीनमेव. चकारः आगच्छति किन्तु चवर्गे कः वर्णः आगच्छति?
आम् पुनः
स्याद् इति इत्यस्मिन् त त द तृतीयवर्णः अस्ति खलु, त त द तृतीयवर्णः, तर्हि चकारस्यापि तृतीयवर्णः एव आगच्छेत्. चकार चवर्गस्य तृतीयवर्णः कः? च च ज खलु.
आम्
दकारस्य स्थाने जकारः एव आगच्छति इति एव यथासङ्ख्यमनुदेशः समानम् इति सूत्रं तदेव वदति. दकारस्य स्थाने जकारः ज ज च च ज आगच्छति, तर्हि रूपं किं भवति अन्ततो गत्वा? दकारस्य स्थाने जकारः भवति अतः स्याद् जनार्दन. अवगच्छति वा?
अवगच्छामि.
स्याद् जनार्दन. अस्तु अग्रिम उदाहरणं करोतु.
बृहत् योगः छिद्रम् आम् चिन्तयामि चकारः स्थाने चकारः
चकारः कथम् आगच्छति? तकारस्य स्थाने चकारः च आगच्छति खलु.
आम् चकारः आदेशः भवति.
बृहत् छिद्रम् इति भवति.
बृहत् छिद्रम्
समीचीनमस्ति महोदय. अग्रे
यत् योगः चन्द्रमसि आम् चकारः स्थाने चकारः आदेशः भवति. यत् चन्द्रमसि
अतिसुन्दरम्. अग्रे
मृत् योगः शकटिका चकारः स्थाने चकारः आदेशः भवति.
तकारस्य स्थाने चकारः मृत् शकटिका अथवा वयं दृष्टवन्तः षश्चोटि इति सूत्रेण छत्वसन्धिः अपि भवितुमर्हति मृत् शकटिका इति. मृत् शकटिका अथवा मृत् छकटिका महाप्राणचकारः आगच्छति शकारस्य स्थाने. अस्तु एकनिमिष. अन्य कोऽपि अस्ति वा यः न पठितवान् अथवा न पठितवती? सुमित्रा भगिनी, राधिका भगिनी न पठितवत्यौ? अस्तु महोदय, भवानेव अनुवर्तयतु, समापयतु अस्माकं श्रुत्वसन्धिपाठम्. अग्रे
भगिनि केवलं शृणोमि.
शृणोति इति वा? अस्तु तर्हि बालसुब्रह्मण्यमहोदय कृपया अग्रे कृत्वा.
योगात् योगचलितमानसः स्तोहोचनासु इति सूत्रेण तकारस्य स्थाने चकारः योगात् चलितमानसः.
सम्यक्. अग्रे
उद् ज्वलति स्तोहश्चनाश्चुः इति सूत्रेण धकारस्थाने जकारः तृतीयसदस्य जकारः उज्ज्वलति.
अग्रे महोदय.
स्वपन् सोहन् योग श्वसन् स्वपन् योग श्वसन् सो नकारस्थाने ञकारः
सत्यं
स्वपञ् श्वसन्
अपि च पश्यन् शृण्वन् सन् शम्भुः इति दृष्टवन्तः खलु रूपचतुष्टयं तत्सर्वम् अत्र प्रवर्तते परन्तु श्चुत्वसन्धिकरणीयः इति दृष्ट्या पर्याप्तं स्वपन् योगः श्वसन् भवान् यदुक्तवान् तत् समीचीनमेव स्वपन् स्वपै श्वसन् इति भवति अग्रे
भगिनि
क्षम्यताम् अत्र रूपचतुष्टयं तु न भवितुमर्हति किल केवलं रूपद्वयमेव प्रायः अत्र
किमर्थं महोदय
षष्ठोडि इत्यस्य कार्यं तु न भवितुमर्हति किल श्वसन् इत्यस्य सकारात् परतः अवकारः अट् प्रत्याहारे अस्ति
अट् प्रत्याहारे अस्ति
धन्यवादः
अग्रे
अग्रे हे विद्यार्थिन् जानीहि अत्रापि नकारस्थाने ञकारः सो विद्यार्थिन् जानीहि
हा नकारस्य स्थाने ताल तालव्य आगच्छति समीचीनम् अग्रे
अन्तिमः सत् जित् सत् चित् स्तोहस्तु नाश्चुः सच्चित्
सच्चित् इति अस्ति हा समीचीनम् इत्यनेन श्चुत्वसन्धिः पाठः समापितः अस्ति कृपया शुक्रवासरस्य वर्गमपि गच्छन्तु तत्र बहु लाभाय भवति वारं वारम् अभ्यासः भवति चेत् नो चेत् सन्धिविषयस्य विस्मरणमेव भवति इति मन्ये अस्तु
भगिनि मम एकः प्रश्नः अस्ति कदा यदि तकार अस्ति यथा स्यात् छलादशोऽन्ते प्रथमं कार्यं करोति अनन्तरं श्चुत्वसन्धिः भवति
अस्तु किमर्थं श्चुत्वसन्धिः प्रथमं न कार्यं करोति इति भवतः भवत्याः प्रश्नः वा
आम्
हा यतोहि तत्र हा संक्षेपेण वदिष्यामि शीघ्रमेव झलां जशोऽन्ते इत्यस्य सूत्रसङ्ख्या अस्ति 8239 इति अष्टमाध्यायस्य द्वितीयपादस्य 39वं सूत्रं झलां जशोऽन्ते अपि च स्तोःश्चुनाश्चुः इत्यस्य सूत्रसङ्ख्या का 8440 अष्टमाध्यायस्य चतुर्थपादस्य चत्वारिंशत्तमसूत्रमस्ति तर्हि किं सूत्रं परमस्ति किं सूत्रं पूर्वमस्ति भगिनि
परमस्ति स्तोश्चुनाश्चुः
हा स्तोश्चुनाश्चुः परसूत्रमस्ति पूर्वसूत्रमस्ति झलां जशोन्ते तर्हि अष्टाध्यायां कश्चन नियमः अस्ति पूर्वत्रासिद्धम् इति एकं सूत्रमस्ति अस्य करपत्रस्य अन्ते कुत्रचित् अस्ति तत् सूत्रं पूर्वत्रासिद्धं वदति यद् वस्तुतः अष्टाध्यायी ग्रन्थः द्विधा विभक्तः भवति आरम्भतः प्रथम अध्यायात् आरभ्य अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमः भागः अस्तु सपादसप्ताध्यायी इति उच्यते तदनन्तरम् अष्टमाध्यायस्य द्वितीयपाद तृतीयपाद चतुर्थपाद मिलित्वा त्रिपादि इति उच्यते द्वितीयभागः तर्हि त्रिपाद्यां यानि सूत्राणि भवन्ति तत्र नियमः अस्ति यद् पूर्वसूत्रं बलवत् अस्ति इति अस्तु अनया दृष्ट्या जलां जशोन्ते पूर्वसूत्रमस्ति इति कृत्वा तस्य बलम् अधिकं तत् प्रथमं कार्यं करोति तदनन्तरं स्तोश्चुनाश्चुः कार्यं करोति
अस्तु अत्र यत्र तकार अस्ति यदि अभ्यासं कुरुत तत्र सर्वे प्रथमं दकार जलादशोन्ते वयं न कुर्वन्ति
हा वयं न कुर्मः यतोहि भवती अपि परिशीलितवती खलु अन्तिम उदाहरणं पश्यतु सत्योगः चित् इत्यत्र चकारः कस्मिन् प्रत्याहारे अस्ति खर् प्रत्याहारे अस्ति न वा चकारः हा तदा तत्र खरीचा कार्यं करोति आरम्भे आरम्भे खरीचा कार्यं करोति चेत् झलां जशोन्ते इत्यस्य कार्यं न प्रवर्तते स सत्योगः चित् खरीच इत्यस्य फलमस्ति चरादेशः. चर् इत्युक्ते प्रथम वर्गस्य प्रथमवर्णः, सत् इति एवमेव तिष्ठति. सत्योगः चित् सच्चित् इति भवति. अस्तु
अस्तु
अस्तु भगिनि, अस्तु समीचीनं. तर्हि विरमामः, पुनः अभ्यासं कुर्वन्तु. शुक्रवासरस्य वर्गमपि कृपया गच्छन्तु. नमस्कारः.
धन्यवादः.